जपाकुसुमसङ्काशम् काश्यपेयम् महाद्युतिम् तमोरिम् सर्वपापघ्नम् प्रणतोऽस्मि दिवाकरम् दधिशङ्खतुषाराभम् क्षीरोदार्णवसम्भवम् नमामि शशिनम् सोमम् शम्भोर्मुकुटभूषणम् धरणीगर्भसम्भूतम् विद्युत्कान्तिसमप्रभम् कुमारम् शक्तिहस्तम् तम् मङ्गलम् प्रणमाम्यहम् प्रियङ्गुकलिकाश्यामम् रूपेणाप्रतिमम् बुधम् सौम्यम् सौम्यगुणोपेतम् तम् बुधम् प्रणमाम्यहम् देवानाम् च ऋषीणाम् च गुरुम् काञ्चनसन्निभम् बुद्धिभूतम् त्रिलोकेशम् तम् नमामि बृहस्पतिम् हिमकुन्दमृणालाभम् दैत्यानाम् परमम् गुरुम् सर्वशास्त्रप्रवक्तारम् भार्गवम् प्रणमाम्यहम् नीलाञ्जनसमाभासम् रविपुत्रम् यमाग्रजम् छायामार्ताण्डसम्भूतम् तम् नमामि शनैश्चरम् अर्धकायम् महावीर्यम् चन्द्रादित्यविमर्दनम् सिंहिकागर्भसम्भूतम् तम् राहुम् प्रणमाम्यहम् पलाशपुष्पसङ्काशम् तारकाग्रहमस्तकम् रौद्रम् रौद्रात्मकम् घोरम् तम् केतुम् प्रणमाम्यहम् इति व्यासमुखोद्गीतम् यः पठेत् सुसमाहितः दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति नरनारी नृपाणाम् च भवेदुः स्वप्ननाशनम् ऐश्वर्यमतुलम् तेषाम् आरोग्यम् पुष्टिवर्धनम् ग्रहनक्षत्रजाः पीडाः तस्कराग्निसमुद्भवाः ताः सर्वाः प्रशमम् यान्ति व्यासो ब्रूतेन संशयः इति श्रीव्यासविरचितम् नवग्रहस्तोत्रम् सम्पू